ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् उर्वारुकुमिव बन्धनान् मृत्योर्मुखी यमामृतात्।
ओम नमः शिवाय। एक समय की बात है, दैत्यों से पीड़ित जनों ने भगवान विष्णु जी से निवेदन किया कि प्रभु हमारी रक्षा करें। तब विष्णु जी कैलाश पर जाकर 1000 कमल द्वारा भगवान शिव की स्तुति करने लगे और प्रत्येक नाम पर एक कमल चढ़ाने लगे। भगवान शिव की माया के कारण एक अद्भुत घटना घटी और भगवान शिव ने एक अंतिम कमल पुष्प छिपा दिया। तब भगवान विष्णु को आश्चर्य हुआ कि वो अंतिम कमल कहां लुप्त हो गया। तब भगवान विष्णु ने अपना एक नेत्र भगवान शिव को अर्पण कर दिया और उसी समय भोलेनाथ प्रसन्न होकर हरि के सन्मुख प्रकट हो गए और कहा कि वर मांगो। तब विष्णु जी बोले, हे नाथ, सारा जगत दैत्यों से पीड़ित है, मेरा अस्त्र शस्त्र दैत्यों का वध नहीं कर सकता। हे परमेश्वर, यदि आप मुझ पे प्रसन्न हैं, तो मुझे कोई ऐसा दिव्य शस्त्र प्रदान करें जिसके द्वारा मैं जगत का कल्याण कर सकूं। तब शिवजी ने विष्णु जी की बात मानकर उन्हें सुदर्शन चक्र प्रदान किया और तीनों लोकों में पुलकित वातावरण छा गया। अतः जो भी प्राणी एक सहस्त्र नामों को जपता है या सुनता है, वह भगवान शिव से मनवांछित वरदान प्राप्त करता है।
शिवजी के सहस्त्र नाम,
ये नाम
शिवजी के सहस्त्र
रम्यः सदाचारः सर्वः शम्भु। महेश्वरः चन्द्रपीडः चन्द्रमौली विश्वम् विश्वाम्भरेश्वरः वेदान्तार्सन्दोह कपाली नीलोहित ध्यानाधरः परिच्छेदः। गणेश्वरः अष्टमूर्तिः विश्वमूर्तिः त्रिवर्ग स्वर्ग साधनः ज्ञानगम्यः दृढप्रज्ञः देवदेवः त्रिलोचनः वामदेवः। महादेवः पटुः परिवृढः दृढः विश्वरूपः विरूपाक्ष वागीशः शुचिसतमः स्वरप्रमाण संवादिः वृषाङ्कः। पिनाकी शटवांगी चित्रवेशः चित्रञ्जनः ममोहरः महायोगी गोप्ता ब्रह्मः। वासः सुभग प्रणवात्मकः पुण्यग्रहः पुरुषः दुष्यः दुर्वासः पुरुषासनः। कन्दगुरुः परिमेष्टि परात्परः अनादिमध्यनिधन्नः गिरीशः गिरिजाघव कुबेरबन्धु श्रीनीलकण्ठ लोकवर्णोत्तमः। समाधिवेद्यः कोदण्डी नीलकण्ठः परिष्वेगी विशालाक्षः दिव्याघः सुरेशः सूर्यतापनः धर्मधाम। क्षेत्रम भगवानः अग्नेन भीतः उग्रः पशुपतिः साक्षरयः प्रियभक्तः परन्तपः दाता दयाकरः। परदी काम शासनः शमशान निल्यः सूक्ष्मः शमशानस्थः महेश्वरः लोककर्ता मृगपति महाकर्ता। शह महाओषधि उत्तर गोपति गोप्ता ज्ञान गम्य पुरातन नीति सुनीति शुद्धात्मा सुखी सोमपः अमृतपः सौम्यः महातेजः महाद्युतिः तेजोमयः अमृतमयः पति अज्ञात शत्रु आलोक संभाव्य भव्यवाहन लोककर वेदकर सूत्रकर सनातन ऋषि कपिलाचार्य विश्वदीप्ति त्रिलोचन पिनाकमणि भूदेव स्वस्तिद स्वस्तिकृत सुधे धृतधाम धामकर सर्वगोचर ब्रह्मस्त्रिक विश्वस्त्रिक सर्ग कर्णिकार प्रिय कवि शाखा विशाखा गोशाखा शग्नोत्तन्न गंगा प्रवादक भव्य पुष्कल रत्पति स्थिर विजितात्मा विद्यात्मा भूतवाहन सारथि गणकाय सुकृति छिन् संशय काम देव काम पाल भस्मोदूरी भस्म प्रिय भस्मशाही कामी गमः समावृतः अनिवृतात्मा धम्पुञ्जः सदाशिवः अकल्मषः चतुर्बाहु दुरावासः दुरासदः सर्वायुग विशारद अध्यात्म योग नील सुतंतु तंतु वर्धन सुभाग लोकसारंग जगदीश भस्म शुद्धिकरः मेरुः ओजस्वी शुद्ध विग्रह असाध्यः साधु साध्यः प्रत्यमृक्ष रूपधृकः हिरण्यरेतः पौराणः। हरः बलि महाहदः महाग्रदः सिद्धवृन्दारवन्दितः व्याघ्रचर्माम्बरः व्यारी महाभूतः महानिधि अमृतश्चः। पाञ्चजन्यः प्रभुभञ्जन् पञ्चविशन्ति तत्परथः पारिजातः पराबरः सुलभः सुवर्तः शूरः ब्रह्मेदनिधि। वर्णाश्रम गुरुः वर्णी शत्रुजीतः शत्रुपातनः आश्रमः क्षप्णः क्षामः ज्ञानवान् अचलेश्वरः। वायुवाहनः धनुर्धरः धनुर्वेदः गुणराशिः गुणकरः सत्यः सत्यपरः। धर्मांगः धर्म साधना अनंत दृष्टिः आनन्दः दण्डः दमयिता दमः अभिवाद्य महामयः। शारदः वितरागः विनीतात्मा तपस्वी भूतभावनः उन्मत्तवेषः प्रच्छन्नः कीर्तिकामः अजित्प्रियः कल्याणप्रकृतिः। सर्वलोक प्रजापति सरस्वती तारकः धीमानः प्रधानः प्रभु अव्यव्यः लोकपालः अन्तिर्हितात्मा। कमलेक्षणः वेदशास्त्र अनियमः नियाताश्रय चन्द्रः सूर्यः शनिः केतुः वाराङ्गः। छवि भक्ति वश्यः हर ब्रह्म मृग बाणार्पणः अनगः अद्री अद्रायालः कान्तः परमात्मा जगद्गुरुः।
शिवजी के सहस्त्रीय नाम।
कामालयः तुष्टः मङ्गलयः मङ्गलावृतः महातपः दीर्घतपः सैविष्ठः सैवीरो ध्रुवः सह संवत्सरः व्याप्ति तपः संवत्सरकरः मन्त्रप्रत्ययः सर्वदर्शनः अजः सर्वेश्वरः सिद्ध महारेताः महाबलः महतेजः सिद्धिः सर्वादिः अग्रः वसुः वसुमनः सत्यः सर्वपापहरोहरः सुकृतिः शोभनः भाजिष्णुः भोजनमः भोक्ता लोकनाथः दुराधरः शान्तः बाणाहस्तः मनस गोचरः अतीन्द्रियो महामयः सर्वावास चतुष्पथः कालयोगी महानाद महोत्साहो महाबलः महाबुद्धिः चारी पुरन्दरः निशाचरः प्रेतचारी महाशक्ति महाद्युतिः अनिर्देशयः वपुः श्रीमानः सर्वाचार्य मनोगतिः बहुश्रुतः नियतात्मा ध्रुवो ध्रुवः ओजस्तेजो द्युतिर्धरः जनकः सर्वशासनः नृत्यप्रियः नित्यनित्र्यः प्रकाशात्मा प्रकाशकः साक्षरः बुधः मन्त्रः समानः सारथमपलवयुगादिकृधु गम्भीरः विश्वाहनः इष्टः अविशिष्टः सुलभः सारसाधनः तीर्थरूपः तीर्थनामा उत्तरः तीर्थदर्शयः तीर्थदः आपानिधि अधिष्ठानम् कालवितः प्रतिष्ठितः प्रमाणज्ञः हिरण्यकवचः हरिः विमोचनः सुरगणः विद्वेषः बिन्दो संशयः। कविकर्ता गहनः गुह करणम् कारणम् कर्ता सर्वबन्ध विमोचनः व्यवसायः। स्थानः आनन्दः जगदादिजः गुरुरः ललितः अभेदः भावात्मा आत्मनि वीरेश्वरः वीरभद्रः। वीरचूडामणिः वेता चिदानन्दः नन्दीधर अज्ञाधरः त्रिशूली क्षिपिविष्टः शिवाल्यः बालखिल्यः। चापः तिग्माशुः बधिरः खगः अभिरामः सुशरणः सुब्रह्मण्यः सुधापतिः माघवान् कौशिकः गोमान् साधनः ललाटाक्ष विश्वदेह सारः संसार चक्रभृत अमोघदण्डः मध्यस्थः हिरण्यः ब्रह्मवर्चसी। व्याघ्रलोचनः रुचिः वीरश्चिः स्वरबन्धुः वाचस्पतिः अहर्पतिः रवीः। शास्ता वैवस्वतो युक्तिरुन्नतकीर्तिः सानुरागः परञ्जयः कैलासाधिपतिः कान्तः सविता रविलोचनः। भयः विश्वभतः अनिवारितः नित्यः नित्यकल्याणः पुण्यश्रवणकीर्तनः दूरश्रवः विश्वसः ध्येयः। स्वप्ननाशनः उतारणः दृष्टिकृत्यः विज्ञेयः दुःसह अभावः अनादि भूर्भवो लक्ष्मीः कीरीटी त्रिदशाधिपः।
शिवजी
विश्वकर्ता सुवीरः रुचिरांगदः जननः जन्मादिः प्रीतिमान् नीतिमान् भवः वसिष्ठः भानुः भीमः भीमपराक्रमः प्रणवः सत्कथाचारः महापोषः महाधनः जन्माधिपः महादेवः परागः तत्त्वं तत्त्वविते एकात्मा विभुः विश्वभूषणः ऋषिः ब्राह्मणः ऐश्वर्यजन्मः पञ्चयज्ञे विमलोदयः आत्मयोनि अनाधन्तः वत्सलः वत्लोकदृकः गायत्री वल्लभ प्रांशुः विश्वावास प्रभाकरः सम्राटः तुषेण सुरस्पृहः अमोघो अरिष्टनेमिः कुमुदः विगज्ज्वरः स्वयं ज्योतिस्तनुज्योतिः आत्मज्योतिः अचञ्चलः शमश्रुः भारनेत्रः त्रयितनुः ज्ञानस्कन्दो महानीतिः विश्वोत्पत्ति अपप्लवः भगो विवस्वानादित्यः योगपारः दिवस्पतिः पुण्यदर्शन उदारकीर्तिः उद्योगे सद्योगे सदस्तमयः नक्षत्रमाली नाकेशः स्वाधिष्ठान पदाश्रयः पवित्रः पापहारी कमासिन शक्तः कान्तः वृषकपिः उष्णः गृहीपतिः कृष्णः समर्थः नाथन हरिः अधर्मशत्रुः अज्ञेयः पुरुहूतः पुरुषतः ब्रह्मग्रभः बृहद्ग्रभः धर्मधेनुः धनागमः जग्द्वित्तैषीः कुमारः कुशलागम हिरण्यवर्ण नानाभूतरसः ध्वनिः अरागनयनाधक्षः विश्वामित्रः धनेश्वरः वसुधामा महाज्योतिरनुमाता महारिस्व नागहार्धिक कुलस्तस्य कुलः अगस्तस्य जातो कणरयः शरः निरावरण निर्वारः वैरन्ध्यः पृष्टर्श्रवः आत्मभूः अनिरुद्ध अत्रिः ज्ञानमूर्तिः महादशा लोकविराग्रणीः चण्डः सत्यपराक्रमः व्यालाकल्पः महाकल्पः कल्पवृक्षः कलाधरः अलङ्कृष्णुः अचलः रोचिष्णुः उन्नतः आयु शब्दपतिः वेगी प्लवनः शिखर सारथिः अंशश्रिष्यणः अतिथिः शक्त्र प्रमाति पादपासनः वशुस्वाः भव्यावाः तप्तः विश्वभोजनः जप्त्यः जरादिशमनः लोहितात्मा बृहद्दशवः नभोयोनिः सुप्रतीक कमीस्थाः निदादसत्पनः स्वच्छः परपुरञ्जयः सुखानीलः सुनिष्पन्नः सुरभिः शिखिरात्मकः वसन्तः माधवः कृष्णः नभस्यः तेजवाहनः
शिवजी के साथ
ये ना